अथ चरणशृङ्गरहित नटराजस्तोत्रम्। सदञ्चित मुदञ्चित निकुञ्चित पदञ्झलझलञ्चलितमञ्जुकटकम्। पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदञ्जननभञ्जनकरम्। कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बकगळम्। चिदम्बुधिमणिम्बुधहृदम्बुजरविं परचिदम्बरनटं हृदि भज। हरन्त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितम्। विरिञ्चिसुरसंहतिपुरन्धरविचिन्तितपदन्तरुणचन्द्रमकुटम्। परं पदविखण्डितयमम्भसितमण्डिततनुं मदनवञ्चनपरम्। चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बरनटं हृदि भज। अवन्तमखिलं जगदभङ्गगुणतुङ्गममतं धृतविधुं सुरसरित्। तरङ्गनिकुरुम्बधृतिलम्पटजटं शमनदम्भसुहरं भवहरम्। शिवं दशदिगन्तरविजृम्भितकरं करलसन्मृगशिशुं पशुपतिं। हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बरनटं हृदि भज। अनन्तनवरत्नविलसत्कटककिङ्किणिझलञ्झलझलञ्झलरवम्। मुकुन्दविधिहस्तगतमद्दललयध्वनिधिमिद्धिमितनर्तनपदम्। शकुन्तरथबर्हिरथनन्दिमुखशृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्। सनन्दसनकप्रमुखवन्दितपदं परचिदम्बरनटं हृदि भज। अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलम्। कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम्। अनन्तविभवं त्रिजगदन्तरमणिं त्रिनयनं त्रिपुरखण्डनपरम्। सनन्दमुनिवन्दितपदं सकरुणं परचिदम्बरनटं हृदि भज। अचिन्त्यमलिवृन्दरुचिबन्धुरगळङ्कुरितकुन्दनिकुरुम्बधवळम्। मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम्। अकम्पमनुकम्पितरतिं सुजनमङ्गळनिधिं गजहरं पशुपतिं। धनञ्जयनुतं प्रणतरञ्जनपरं परचिदम्बरनटं हृदि भज। परंसुरवरं पुरहरं पशुपतिञ्जनितदन्तिमुखषण्मुखममुं। मृडङ्कनकपिङ्गळजटं सनकपङ्कजरविं सुमनसं हिमरुचिम्। असङ्गमनसञ्जलधिजन्मगरळं कबलयन्तमतुलं गुणनिधिं। सनन्दवरदं शमितमिन्दुवदनं परचिदम्बरनटं हृदि भज। अजङ्क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं करलसत्। कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचिण्डमरुकञ्च दधतम्। मुकुन्दविशिखं नमदवन्ध्यफलदं निगमवृन्दतुरगं निरुपमम्। सचण्डिकममुं झटिति संहृतपुरं परचिदम्बरनटं हृदि भज। अनङ्गपरिपन्थिनमजङ्क्षितिधुरन्धरमलङ्करुणयन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रसुरवन्दितपदम्। उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसंहतिसुगन्धिवपुषम्। पतञ्जलिनुतं प्रणवपञ्जरशुकं परचिदम्बरनटं हृदि भज। इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः कृतमुखः। सदः प्रभुपदद्वितयदर्शनपदं सुललितं चरणशृङ्गरहितम्। सरः प्रभवसम्भवहरित्पतिहरिप्रमुखदिव्यनुतशङ्करपदम्। स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम्। इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित नटराजस्तोत्रं सम्पूर्णम्।